हरि सौराष्ट्रदेशे विशदे तिरम्मे ज्योतिर्मयं चन्द्रकलावतंसं भक्ति प्रदाना यकृपावतीर्णम् तं सोमनाथं शरणं प्रपद्ये तं सोमनाथं शरणं प्रपद्ये श्रीशैलशृङ्गे विबुदाति संगे तुलाद्रितुंगे विमुदावसंतं तमर्जुनं मल्लिकपूर्वमेकं नमामि संसारसमुद्रसेतुं नमामि संसारसमुद्रसेतुं अवन्तिकाया विहितावतारं मुक्ति प्रदाना यच सज्जनाना अकाल मृत्यु परिरक्षणार्थं वन्दे महाकाल महासुरेशं वन्दे महाकाल महासुरेशं कावेरिकानर् मदयोः पवित्रे समागमे सज्जनतारणाय सदैव मान्धा त्रिपुरे वसन्तम् ओंकारमीशं शिवमेकमीडे ओंकारमीशं शिवमेकमीडे पूर्वोत्तरे प्रज्वलिकानिधाने सदा वसन्तं गिरिजासमेतं सुरासुराराधितपादपद्मं श्रीवैद्यनाथं तमहं नमामि श्रीवैद्यनाथं तमहं नमामि याम्ये सदङ्गे नगरे तिरम्ये विभूषिताङ्गं विविधैश्च भोगे सद्भक्तिमुक्ति प्रदमीशमेकं श्रीनागनाथं शरणं प्रपद्ये श्रीनागनाथं शरणं प्रपद्ये महात्रिपार्श्वे चतटे रमन्तं समं ज्यमानं सततं मुनिन्द्रेः सुरासुरेय क्षमहोरगाभि केदारमीशं शिवमेकमीडे सह्याद्रिशीर्षे विमले वसन्तं गोदावरीति रपवित्रदेशे यद्यच्छर्तनात्पातकमाशुनाशं प्रयाति तं त्रं बकमीश शमीले प्रयाति तंत्रम वगमि शमीले सुताम्रपर्णी जलराशि योगे निवध्य से तुम विशिखे रसंखे श्रीरामचंद्रे समर्पितं तं रामेश्वराख्यं नियतं नमामि रामेश्वराख्यं नियतं नमामि यम डाकिनी शाकिनी का समाजे निषेप्यमानं पिशिताशनेश्च सदेव भीमा दीपदा प्रसिद्धं तं शंकरं भक्तहितं नमामि तं शंकरं भक्तहितं नमामि सानन्दमानन्दवने वसन्तम् आनन्दकन्दम् हितपापवृन्दम् वाराणसीनाथ अनाथनाथम् श्रीविश्वनाथम् शरणं प्रपद्ये श्रीविश्वनाथम् शरणं प्रपद्ये इलापुरे रम्यविशालकेऽस्मि समुल्लसन्तं च जगद्वरेण्यं वन्वन्दे महोदारतरश्वभावं धृष्णेश्वराख्यं शरणं प्रपद्ये धृष्णे श्वराख्यं शरणं प्रपद्ये ज्योतिर्मयद्वा दशलिङ्गकाना शिवात्मनां प्रोक्तमिदं क्रमेण शिवात्मनां प्रोक्तमिदं क्रमेण स्तोत्रं पठित्वा मनोज्योतिभक्त्या फलं तदालोक्यनिजं भजे च फलं तदालोक्यनिजं भजे च